प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पिथुलमैक्तिकशोभिनाशम् आकर्ण दीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलभालदेशं प्रातर्भजामि ललिताभुजकल्पवल्लीं रक्ताङ्गुलीयलसद्गुल लिपल्ववाढ्यायं मणिक्यहिमवलयाङ्गदशोभमानं उन्रेक्षु चापकुसुमेषु तृणीदधानां प्रातर्नमामि ललिताचरणार्विदम् भक्तेष्टदाननिरतं भवसिन्धुपूतं पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुसध्वज सुदर्शनलाञ्छनाढ्यं प्रातः स्तुवे परशिवां ललितां भवानीं त्रयन्तवेद्यी विभवां करुणानवद्यां विश्वस्य सृष्टिविलयस्थिति हेतुभूतां विद्येश्वरीं निगवाम्वगं न शातिदूरां प्रातर्वदामि ललिते तव पुण्यनां कामेश्वरीति कमलेति महेश्वरीति श्रीसाम्भवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति यः श्लोकपञ्चकविदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभादे तस्मै ददाति ललिता झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम्।